सर्वेभ्यो नमस्कारः. इदानीं वर्गं कर्तुं शक्नुमः. गतवर्गे वयं किं कृतवन्तः चेत् क्त्वा इति रूपस्य किञ्चित् अभ्यासः कृतवन्तः.
महोदय, सम्यक् न श्रूयते. महोदय,
सम्यक् न श्रूयते वा भगिनि? एकनिमिषः, इदानीं सम्यक् श्रूयते वा?
धन्यवादः.
हा, अस्तु, धन्यवादः भगिनि. यदा न श्रूयते कृपया वदतु.
श्रूयते, श्रूयते.
हा, किन्तु यदा न श्रूयते कृपया वदतु न श्रूयते इति. धन्यवादः भगिनि. अथवा नो चेत् अहं न जानामि. अस्तु, गतसप्ताहे वयं क्त्वा इति रूपस्य किञ्चित् अभ्यासं कृतवन्तः. तदनन्तरं सम्बन्धसूचक सम्बन्धसूचक अथवा सम्बन्धवाचकपदानामपि किञ्चित् अभ्यासं कृतवन्तः. अत्र पुटसङ्ख्या 58 मध्ये तत्र विशेषरूपाणि अस्ति त्वा इति प्रत्ययस्य. तत्र किं भवति, त्वा इति रूपस्य उपयोगः कः इत्युक्ते, तत्र यत्र क्रियाद्वयम् अस्ति तत्र वयं क्त्वान्तरूपं, क्त्वा इति अन्ते भवति इति कृत्वा क्त्वान्त इति वदामः. क्त्वा इति तस्य नाम अस्ति प्रत्ययः इति. तस्य उपयोगं कृत्वा वयं क्रियाद्वयं वक्तुं शक्नुमः. यथा पुटसङ्ख्या 58 मध्ये प्रथमवाक्यं किम् अस्ति, सः शालां गच्छति, पाठं पठति. सः शालां गत्वा पाठं पठति. तत्र प्रथमक्रिया अस्ति गच्छति, तदनन्तरं क्रिया अस्ति पठति. प्रथमक्रिया अनन्तरं द्वितीया क्रिया भवति. प्रथमक्रिया गच्छति, तदनन्तरं पठति इति क्रिया भवति. अतः तत्र वाक्यद्वयमस्ति, सः शालां गच्छति, तदनन्तरं सः पाठं पठति. अत्र वाक्यद्वयं मिलित्वा एकमेव वाक्यं कर्तुं शक्नुमः. तत्र गच्छति इति तद् न वदामः, किन्तु अन्यरूपं वदामः. गच्छति इति स्थाने गत्वा इति वदामः. सः शालां गत्वा पाठं पठति इति. गच्छति इति शब्दस्य स्थाने वयं गत्वा इति उपयोगं कुर्मः. गत्वा इति एतदेव अस्ति. तत्र सामान्यरूपम् अस्ति, अपि च विशेषरूपाणि अपि सन्ति. तदेव गृहपाठम् अपि आसीत्. तत्र विशेषरूपाणि उपयुज्य वाक्यानि लिखन्तु इति गृहपाठम् आसीत्. अस्तु, पश्यामः कः प्रथमं वक्तुमिच्छति. नमस्कारः वंशीसुधा भगिनी. नमस्कारः.
नमस्ते, नमस्ते महोदय.
नमस्कारः भगिनी.
नमस्ते महोदय, अहं मेहुल अस्मि.
मेहुल महोदय, नमस्कारः.
नमस्कारः.
नमस्कारः. अत्र गृहपाठः आसीत्, विशेषरूपाणि उपयुज्य पञ्चवाक्यानि लिखन्तु इति. अत्र अस्तु, कः प्रथमं वदति? नरेश महोदय, भवान् वक्तुमिच्छति वा?
आम्. मम मित्रस्य पुस्तकानि दत्त्वा अहं पुस्तकालयं गच्छामि. शिक्षकं प्रश्नान् पृष्ट्वा सः अध्ययनं करोति. भोजनं स्वीकृत्य भिक्षुकः गच्छति.
स्वीकृत्य, समीचीनं महोदय.
वस्त्राणि प्रक्षाल्य माता पाकं करोति. आसन्दात् उत्थाय अहं ध्वजं प्रणमामि.
समीचीनं महोदय, समीचीनं. हा, धन्यवादः. शोभा भगिनी. हरि ओं महोदय. बनचेतनी महोदय, नमस्कारः.
भवान् श्रोतुं शक्नोति वा?
शक्नोमि महोदय.
फोन् माध्यमे वेब्सैट् आप् इन्स्टाल्
प्री कान्फरेन्स् काल् इति उपयुज्य इदानीं
महोदय प्रथमतया
अस्तु किमर्थं
सर्वमस्ति महोदय
अस्तु अस्तु किन्तु एतत् सम्यक् एव अस्ति शोभा भगिनी वदति वा
आम् महोदय आपणिकः शाकानि आपणे ददाति ग्राहकान् विक्रयति आपणिकः शाकानि आपणे दत्त्वा ग्राहकान् विक्रयति अहं मम सखीः मम गृहे आह्वयामि अनन्तरं सखीनां भोजनं पचामि
सखीनां भोजनं तत्र चतुर्थी कस्य इति भवति भगिनि फार् हूम् इति अर्थः खलु तत्र तत्र सख्यै इति भवति सख्यै सख्यै भोजनं पचामि तत्र तत्र प्रसिद्धः अस्ति भगिनि नमस्तस्यै नमस्तस्यै अस्ति खलु देवी स्तोत्रं तत्र यथा वदामः रामाय नमः शिवाय नमः तत्र चतुर्थी विभक्तिः अस्ति तादृशे एव स्त्रीलिङ्गे तस्यै इति
तस्यै
चतुर्थी विभक्ति सखी अस्ति सख्यै
सख्यै
सखी इति मन्ये सख्यै इति मन्ये इति सत्यम् इति मन्ये भगिनि
ओके अहं मम सखीः मम गृहे आहूय सख्यैः भोजनं पचामि
इति मन्ये भगिनि
योगी दर्भासने उपविशति ध्यानं करोति योगी दर्भासने उपविश्य ध्यानं करोति भक्ताः देवालयम् आगच्छन्ति अन्तः उपविश्यन्ति पूजां पश्यन्ति भक्ताः देवालयम् आगत्वा अन्तः उपविश्य पूजां पश्यन्ति
समीचीनं भगिनि
भारवाहः पेटिकाम् आनयति कारयाने स्थापयति भारवाहः पेटिकाम् आनीय कारयाने स्थापयति
समीचीनं भगिनि धन्यवादः भगिनि धन्यवादः अस्तु धन्यवादः अस्तु वेणुगोपाल् महोदय वदति वा
आं महोदय प्रथमवाक्यं रामः लक्ष्मणेन सह जनकस्य सभा गत्वा
गीता नमस्ते
गीता भगिनि नमस्कारः
नमस्कारः
नमस्कारः भगिनि
रामः लक्ष्मणेन सह जनकस्य सभा गत्वा महेश्वरस्य पिनाकं गृहीत्वा गृहीत्वा धनुः छेदति
गृहीत्वा धनुं छेदति तत्र कर्मपदम् अस्ति महोदय तत्र जनकस्य
सभा गत्वा
सभां गत्वा
सभां
कुत्र तत्र गच्छति इति तस्य कर्मपदम् अस्ति ग्रामं गच्छामि अथवा मन्दिरः अस्ति मन्दिरं गच्छामि तत्र कर्मपदं भवति द्वितीयविभक्ति अपेक्षितम् अस्ति
अस्तु किन्तु गत्वा इति समीचीनम् अस्ति
अस्ति अस्ति गत्वा तदनन्तरं गृहीत्वा अपि समीचीनं
अस्तु अस्तु द्वितीयवाक्यम् अध्यापकः कक्षायां छात्रः द्रष्टुं गर्जति उत्थाय प्रश्नानि पृच्छन्तु इति तृतीयवाक्यं भोजनं स्वीकृत्य भिक्षुकाः आगच्छन्तः भोजनं
भिक्षुकाः आगच्छन्तः
चतुर्थः उत्थाय भोजनं न खादतु, उपविश्य एव खादतु.
समीचीनं.
पञ्चमवाक्यं पाकशालायां पाकशालां भूत्वा वारं वारं न खादतु.
तत्र पाकशालायाम् एव समीचीनं. सप्तमी विभक्ति यत्र अस्ति इति पाकशालायां भूत्वा
भूत्वा वारं वारं न खादतु.
वारं वारं न खादतु. अस्तु, समीचीनं महोदय. धन्यवादः. धन्यवादः महोदय. अस्तु, रमाबाय् भगिनी वदति वा? रमाबाय् भगिनी, अस्तु. गीता भगिनी वदति वा? गीता भगिनी अस्ति.
ओन्लि त्रीणि वाक्यानि.
यत् 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 यदस्ति तद् वदतु भगिनी.
ददाति, दत्वा, धनिकः भिक्षुकान् धनं दत्वा सन्तुष्टः भवति.
धनं पुनरेकवारं भगिनि.
धनिकः धनिकः भिक्षुकान् धनं दत्वा
भिक्षुकाय भगिनि.
ओ, दत्वा. ओके ओके, सारी सारी.
धनम् इति कर्मपदं. किं ददाति तत् कर्मपदं. कस्मै ददाति तत्र वाट् यु गिव् एण्ड् फार् हूम् यु गिव् इति कर्मपदम् अपि
धनिकः भिक्षुकाय धनं दत्वा सन्तुष्टः भवति. वृष्टिः भवति, यूयं छत्रं गृहीत्वा गच्छत.
समीचीनं.
रजकाः वस्त्राणि प्रक्षाल्य गृहं गच्छन्ति. That's all I did.
समीचीनं भगिनि, धन्यवादः. अस्तु, धन्यवादः. चिन्ता मास्तु. चिन्ता मास्तु भगिनि. अस्तु, रघुपति महोदय वदति वा?
आं महोदय. भक्ताः शुचिर्भूत्वा देवालयं गच्छन्ति. अहं प्रातः उत्थाय देवं नमस्करोमि. आरक्षकः दण्डं गृहीत्वा चोरं ताडयति. अहम् आसन्दे उपविश्य भवतः पाठं शृण्वन् अस्मि. गाम् आहूय ग्रासं ददामि. बालकः रुदित्वा शालां गच्छति.
समीचीनं महोदय, समीचीनं. धन्यवादः. रमाय वंशीसुधा भगिनी वदति वा?
आं महोदय. प्रथमः उत्तिष्ठति इति क्रियापदं त्वान्तप्रत्ययः उत्थाय. सः उषःकाले उत्थाय पाठं पठति. प्रथमवाक्यं. द्वितीयवाक्यमस्ति स्वीकरोति. स्वीकरोति उपसर्गयोजनेन लबन्तपदं स्वीकृत्य. अहं पुस्तकं स्वीकृत्य विद्यालयं गच्छामि. तृतीयपदमस्ति नमति. नमति उपसर्गयोजनेन प्र इति योजनेन लबन्त इति पदम् अस्ति. प्रणम्य, नारायणं प्रणम्य विद्यालयं गच्छतु. चतुर्थः वाक्यः अस्ति आप्नोति. प्रयोगः आप्नोति लबन्तपदं प्राप्य. अनुमतिं प्राप्य गृहं गच्छामि. पञ्चमवाक्यमस्ति पश्यति. पश्यति त्वा प्रत्ययः दृष्ट्वा अपि पदमस्ति. बालकः सर्पः दृष्ट्वा भीतः भवति.
सर्पम् इति कर्मपदं.
सर्पम् आम् आम् सर्पं दृष्ट्वा भीतः भवति. षष्ठः वाक्यमस्ति उत्तिष्ठति उत्थाय इति त्वान्तपदं सः उषःकाले उत्थाय पाठं पठति महोदय.
धन्यवादः भगिनि, समीचीनं.
धन्यवादः.
अस्तु, मेहुल् महोदय वदति वा?
आम् महोदय. प्रथमवाक्यमस्ति उद्याने क्रीडित्वा बालकं गृहपाठं करोति.
बालकः अथवा बालिका?
बालकः. अस्तु, बालकः. उद्याने क्रीडित्वा बालकः गृहपाठं करोति.
हा, तत्र कर्तृपदम् अस्ति महोदय, अतः बालकम् इति नास्ति, बालकः.
द्वितीयवाक्ये मालां जपित्वा अहं कार्यालये गच्छामि.
तत्र गच्छामि इति तत्र कार्यालयं गच्छामि.
कार्यालयम्? अस्तु,
अहं कार्यालये अस्मि किन्तु कार्यालयं गच्छामि. गच्छामि अस्ति चेत् कार्यालयम्, अस्मि चेत् कार्यालये.
आम् आम्. तृतीय वाक्यं पुस्तकं पठित्वा एव अहं निद्रां करोमि.
समीचीनं महोदय.
चतुर्थवाक्ये मम मित्रं मिलित्वा अहं बहिः गच्छामि.
तत्र मित्रेण मिलित्वा इति रूपम् अस्ति इति चिन्तयामि महोदय.
अस्तु, मम मित्रेण मिलित्वा अहं बहिः गच्छामि. पञ्चमवाक्यं प्रश्नं पृष्ट्वा भवान् सम्यक्तया कार्यं कर्तुं शक्नोति.
बहु समीचीनमस्ति महोदय, धन्यवादः. धन्यवादः महोदय. अस्तु, कः अथवा क न उक्तवान् अथवा उक्तवती या अथवा अन्य कोऽपि वक्तुमिच्छति वा?
नमस्ते महोदय.
नमस्कारः रमाबाई भगिनी, इदानीं श्रूयते वा?
इदानीमेव
श्रूयते. इदानीं सम्यक् अस्ति वा? अस्तु, भवती वाक्यानि वक्तुम् इच्छति वा भगिनि? अस्तु, समीचीनं, वदतु भगिनि.
पिता पुत्रं गृहीत्वा आपणं गच्छति. अध्यापकः प्रश्नं पृष्ट्वा उत्तरं ददाति. सेविका वस्त्रं प्रक्षाल्य गृहं गच्छति. शिशुः रुदित्वा निद्रां करोति. अहं प्रातःकाले उत्थाय योगासनं करोमि.
समीचीनं भगिनि. अन्य अस्ति वा? अहं कति इति न जानामि अतः पृष्टवान्. अस्तु अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा? भानुचेतनी महोदय. अस्तु, गीताञ्जलि भगिनी वदति वा? अस्तु, वदतु भगिनि.
अहं कार्यालयं गत्वा पृष्ठं पश्यामि. किञ्चित् भोजनं पचित्वा
इति पचनम् अथवा खादनं
पचित्वा
पत्वा इति अस्ति वा? प्रायशः महोदय, अहमपि न. अस्तु भगिनि, तत्र एतत् स्वीकुर्मः, पचनं कृत्वा इति स्वीकुर्मः तत्र.
पचित्वा
पचनं कृत्वा इति.
किञ्चित् भोजनं पचनं कृत्वा.
क्षम्यतां भगिनि, क्षम्यतां. तत्र यदि यथा रघुपतिमहोदय उक्तवान् तत्र पचित्वा अस्ति वा अथवा पत्वा कः सम्यक् अस्ति इति न जानीमः, अतः अत्र कृत्वा इति चिन्तितवान् अहम्। एतत् कुर्मः, भोजनस्य पचनं कृत्वा इति इदानीं वदतु। किञ्चित् भोजनस्य पचनं कृत्वा इति वाक्यं वदतु। वदतु पुनरेकवारं वदतु भगिनि।
किञ्चित् भोजनस्य पचनं कृत्वा अनन्तरं वदति
वदति अस्तु।
सः पूर्णं चलचित्रं दृष्ट्वा चलनचित्रं दृष्ट्वा अनन्तरम् उपविशति। वयं सर्वाणि पुस्तकानि घृत्वा विद्यालयं गच्छामः।
गृहीत्वा इति तत्र पुस्तके अस्ति भगिनि, तत्र पुटसङ्ख्या 58 मध्ये टेबल् कोष्टकम् अस्ति, तत्र एव गृह्णाति गृहीत्वा इति रूपम् अस्ति।
वानरः वृक्षे फलानि खादित्वा दूरं धावति।
वानरः अथवा वानराः
वानरः वृक्षे फलानि खादित्वा दूरं धावति।
धावति वानराः अस्ति चेत् किं भवति? धावति स्थाने
धावन्ति।
समीचीनं, तत् तावदेव भगिनि। अस्तु,
वानराः वृक्षे फलानि खादित्वा दूरं धावन्ति।
समीचीनं भगिनि, धन्यवादः। भानुचेतनी महोदय वक्तुम् इच्छति वा?
आं महोदय। सः मुखं प्रक्षाल्य भोजनं खादति। सः द्वारम् उद्घाट्य अन्तः आगच्छति। सः व्यायामं कृत्वा कार्यं करोति। सः स्नात्वा देवां पूजां करोति।
देवस्य पूजाम् अथवा पूजाम्?
अहं देवपूजाम् इति।
देवपूजाम्, अस्तु, देवपूजाम् एकपदम् अस्ति, अस्तु, संयुक्तपदम्, अस्तु।
नो चेत् षष्ठीविभक्ति देवस्य। धन्यवादः महोदय।
अस्तु, धन्यवादः महोदय। अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा? सर्वे उक्तवन्तः।
अहं वदामि।
वदतु
भगिनि। रुदित्वा बालकः रुदित्वा विद्यालयं गच्छति। अहं ऐ डोण्ट् नो वाट् टु से हियर्। अहं संस्कृतपुस्तकानि स्वीकृत्य यत्र कुत्रापि गच्छामि।
समीचीनमेव अस्ति।
वेरेवर्
यत्र कुत्रापि गच्छामि। समीचीनम्। ऐ गो एव्रिवेर् अथवा वेरेवर् सर्वत्रापि। सर्वत्र सर्वत्र समीचीनम् अस्ति। तत्र यत्र कुत्रापि गच्छामि अहं संस्कृतपुस्तकानि गृहीत्वा एव गच्छामि। स्वीकृत्य गृहीत्वा न स्वीकृत्य क्षम्यतां
स्वीकृत्य एव गच्छामि
गच्छामि
धन्यवादः
भगिनि अस्तु
धन्यवादः
धन्यवादः अस्तु अद्य किञ्चित् पुनः अभ्यासम् एतद् एव किञ्चित् अभ्यासः कुर्मः इति कृत्वा तत्र ईमेल् द्वारा कृष्णफलकस्य लिङ्क् प्रेषितवान् तत्र वर्गस्य कृष्णफलकम् इति एकं स्थापितवान् अस्मि तत्र क्लास् ब्लाक् बोर्ड् इति कृष्णफलकं तत् कृपया सर्वे तत् लिङ्क् पश्यन्तु दृश्यते वा
महोदय एकनिमिषं महोदय भूत्वा प्रयोज्य वाक्यं कर्तुं न शक्यते मया
भूत्वा इति वा
भूत्वा इति प्रयोज्य
अस्तु पश्यामः भूत्वा
शुचिर्भूत्वा देवालयं गच्छति भक्ताः
रघुपति
भक्ताः शुचिर्भूत्वा देवालयं गच्छन्ति
शुचिर् इत्युक्ते
शुचिर्भूत्वा इति
शुचिः स्नानं सर्वं कृत्वा
पादप्रक्षाल्य
शौचं
तत् कृत्वा देवालयं गच्छन्ति इति अस्तु सर्वे
महोदय स्वीकृत्वा स्थाने स्वीकृत्य कथं भवति महोदय
स्वीकृत्य एव समीचीनमस्ति तत्र
आम् किन्तु त्वान्त
नास्ति तत्र नियमः अस्ति महोदय धातुरूपम् उपसर्गसहितधातु अस्ति उपसर्गरहितधातु अस्ति गच्छति इति तत्र गम् धातुः उपसर्ग नास्ति तत्र तस्य त्वान्तरूपं भवति गत्वा इति आगम् इति तत्र तस्य आ उपसर्ग अस्ति तत्र आगच्छति इति क्रियापदम् अस्ति किन्तु तस्य रूपं लेबन्तरूपम् इति नाम अस्ति आगत्य इति भवति गत्वा इति क्त्वान्तरूपं क्त्वा इति अन्ते अस्ति इति कृत्वा क्त्वान्तरूपम् अन्यस्य नाम अस्ति ल्यबन्त अन्ते यकारः भवति ल्या प्रक्षाल्य स्वीकृत्य इति तादृश यकारः भवति ल्यबन्तम् इति नाम अस्ति तस्य
आं महोदय
अतः स्वीकृत्य इति कृत्वा किन्तु स्वीकृत्य गत्वा आगत्य क्षालित्वा किन्तु प्रक्षाल्य इति
आं महोदय त्वान्तरूपं केवलं धातूनां
न धातु यत्र धातु मध्ये उपसर्गः नास्ति उपसर्गरहितधातु
उपसर्गसहित धातु अस्ति चेत् त्वान्त नास्ति लभन्त एव
अस्ति सत्यं तदेव नियमः अस्ति महोदय
हरि ओम् धन्यवादः
अस्तु इदानीं सर्वे एतत् कृष्णफलकं पश्यन्ति वा अस्तु तत्र प्रथमपुटे किमपि नास्ति केवलं कृष्णफलकम् इति चित्रम् अस्ति तावदेव द्वितीयपुटे एतत् रूपम् अस्ति अहं केवलं त्वान्तरूपमेव तत्र तस्य कोष्टकमेव अत्र तत्र अस्ति तस्य उपयोगं कृत्वा अस्तु प्रथमं तत्र किम् अस्ति इति एकवारं पश्यामः अस्तु कोऽपि एकवारं तत्र किं किम् अस्ति इति वदतु पश्यामः कः वक्तुं इच्छति अस्तु शोभा भगिनी तत्र प्रथमकोष्टके किं किम् अस्ति इति एकवारं वदति वा हसति इति
सारी महोदय डिड यू से मै नेम् ऐ डिडन्ट् हियर् प्रापर्ली
शोभा भगिनी
ओके हसति
तद् धातु धातु नाम अस्ति भगिनि तत्र धातोः नाम अस्ति हस् धातुः
हसति हस् धातोः हस् धातुः अस्ति हसित्वा क्रीडति क्रीड् क्रीडित्वा भ्रमति भ्रम् भ्रमित्वा जपति जप् जपित्वा लिखति लिख् लिखित्वा खादति खाद् खादित्वा खनति खन् खनित्वा क्रन्दति क्रन्द् क्रन्दित्वा धावति धाव् धावित्वा निन्दति निन्द् निन्दित्वा नृत्यति नृत् नर्तित्वा नर्तित्वा पठति पठ् पठित्वा पतति पत् पतित्वा मिलति मिल् मिलित्वा धरति धृ धृत्वा करोति कृ कृत्वा स्मरति स्मृ स्मृत्वा हरति हृ हृत्वा शृणोति श्रु श्रुत्वा जानाति ज्ञा ज्ञात्वा स्नाति स्ना स्नात्वा क्रीणाति क्री क्रीत्वा नयति नी नीत्वा भवति भू भूत्वा पिबति पा पीत्वा तिष्ठति स्था स्थित्वा दहति दह दग्ध्वा गच्छति गम गत्वा नमति नम नत्वा नत्वा त्यजति त्यज त्यक्त्वा पचति पच पक्त्वा पश्यति दृश् दृष्ट्वा पृच्छति पृच् पृष्ट्वा कर्षति कृष् कृष्ट्वा इच्छति इष् इष्ट्वा
धन्यवादः भगिनी धन्यवादः अस्तु अत्र एतत् उपयोगकरं किमर्थम् अस्ति चेत् तत्र धातोः रूपं दत्तमस्ति अतः वयं त्वान्तरूपं कीदृशम् अस्ति किमर्थम् एतद् रूपम् अस्ति इति सम्यक्तया ज्ञातुं शक्नुमः हरति तत्र किं किमर्थं हरित्वा नास्ति किन्तु हृ धातु अस्ति अथवा अतः एव हृत्वा करोति किमर्थं करोत्वा इति नास्ति किन्तु कृ धातुः अस्ति कृत्वा इति अस्ति तद् सम्यक्तया अवगन्तुं शक्नुमः तत्र धातुः अस्ति चेत् अवगमनं सम्यक्तया भवति इति एतत् कोष्टकम् उपयोगकरम् अस्ति अस्तु तत्र अनेकानि क्रियापदानि तत्र सन्ति किन्तु तस्य उपयोगं कीदृशं भवति इति अग्रे पश्यामः एकमेकं पश्यामः अस्तु तत्र वेणुगोपाल् महोदय अग्रिमपुटे यत्र उदाहरणमस्ति तत्र छात्रः तत्र प्रथम द्वितीय तृतीय इति करोतु महोदय
छात्रः पाठं पूर्वं पठति टिप्पणीं लिखति पठति छात्रः पाठं पठित्वा टिप्पणीं लिखति
टिप्पणी इति जानाति वा
अस्तु अस्तु इत्युक्ते ब्रीफ्
समरी
समरी अस्तु
टिप्पणी
टिप्पणी इस् अ कमेंटरी
तदपि तदपि भवति टिप्पणी तदपि अर्थः अस्ति तदपि अर्थः अस्ति तदपि सम्यक् एव अस्ति अस्तु अग्रिमं
कृषकः भूमिं खनति
खनति
सस्यां रोपयति सस्यं रोपयति कृषकः भूमिं खनित्वा सत्यं रोपयति
इदानीं खनति इति अर्थः कः इति
खनति इति इत्युक्ते तृतीयवाक्यं आचार्यः पाठं पाठयति प्रश्नं पृच्छति आचार्यः पाठं पठित्वा प्रश्नं पृच्छति
पाठयति पाठयित्वा इति अस्ति तद् अत्र न कोष्टके नास्ति किन्तु पाठयित्वा इति रूपम् अस्ति महोदय तत्र
अस्तु धन्यवादः
धन्यवादः महोदय तत्र प्रथमं कार्यं पूर्वं पठति खनति पाठयति पूर्वकार्यं प्रथमकार्यं तदनन्तरं पश्चात् किं भवति इति तद् तदेव तत्र पूर्वम् इति पश्चात् फस्ट् बिफोर् एण्ड् आफ्टर् इति तावदेव अस्ति धन्यवादः महोदय अस्तु अग्रे मेहुल् महोदय अग्रे करोति वा त्रीणि वाक्यानि करोतु तत्र
प्रश्नः अस्ति महोदय पश्चात् पदं का विभक्ति
पश्चात् इति तत्र विभक्ति नास्ति पश्चात् इति अन्वयं पश्चात् अव्ययम् इति अव्ययं वा पूर्वं पश्चात् चिन्तयतु वदामि भगिनि सम्यक् एव प्रश्नः अस्ति कीदृशपदं अस्तु अस्तु मेहुल् महोदय
अस्तु चतुर्थवाक्यं कृष्णः रथं स्थापयति अर्जुनम् उपदिशति कृष्णः रथं स्थापयित्वा अर्जुनम् उपदिशति पञ्चमवाक्यम् आरक्षः धावति चोरं गृह्णाति आरक्षकः धावित्वा चोरं गृह्णाति
एकप्रश्नं महोदय उपदिशति
उपदेशं करोति उपदिशति
पश्चात् अव्यय महोदय
अव्यय वा अस्तु अव्ययः धन्यवादः महोदय
अस्तु कविः काव्यं लिखति धनं प्राप्नोति कविः काव्यं लिखित्वा धनं प्राप्नोति
धन्यवादः महोदय धन्यवादः अस्तु अग्रे
महोदय धावति धावित्वा इति पदं महोदय किम् अस्ति त्वान्तपदम् आरक्षकः धावति चोरं गृह्णाति भवान् किं वदति अहं न शृणोमि किञ्चित्
धावित्वा एव तत्र कोष्टके अपि अस्ति भगिनि
धन्यवादः महोदय
नवम तत्र
धावित्वा
तदेव तदेव महोदय अपि उक्तवान् इति मन्ये अस्तु अग्रे
पञ्चवाक्य इत्युक्ते
आरक्षकः धावति चोरं गृह्णाति आरक्षकः इत्युक्ते कः वदति धावति धावति जानाति भगिनि रन् धावति रन् चोरं गृह्णाति क्याच्
पकड़ती
पकड़ा चोर ने
कैच कैच अस्तु
धन्यवाद
अस्तु कह अग्रे रमा भगिनी अग्रे करोति वा
अस्तु महोदय
त्रीणि त्रीणि वाक्यानि सप्त आरभ्य
कविः काव्यं लिखति फलं खादति धावति वानरः फलं खादित्वा धावति शिशुः पतति रोदनं करोति शिशुः पतित्वा रोदनं करोति. पितामहः कथां कथयति, प्रश्नं पृच्छति. पितामहः कथां
कथयित्वा
प्रश्नं पृच्छति.
धन्यवादः भगिनी, धन्यवादः. रघुपति महोदय अग्रिम त्रीणि.
महोदय, बालिका नृत्यति जनान् तोषयति. बालिका नर्तित्वा नर्तित्वा जनान् तोषयति. जननी स्नानं करोति, पाकं करोति. जननी स्नात्वा स्नानं कृत्वा पाकं करोति. छात्रः अध्यापकं पश्यति, नमस्करोति. छात्रः अध्यापकं दृष्ट्वा नमस्करोति.
धन्यवादः महोदय. गीताकुमार गीता भगिनी अग्रे पठति वा, अग्रे करोति वा त्रीणि वाक्यानि.
एक प्रश्न महोदय, तोषयति इत्युक्ते to make happy, to balika vritti nartitva janan toshayiti
ite amam satyam 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 santoshah iti asti kadu bhagini
santoshah tosha
toshah ha
yuvakah yuvakah chitralayam gacchati, chitram pashyati. yuvakah chitralayam gatva chitram pashyati. बालिका गीतं शृणोति, नृत्यति. बालिका गीतं
श्रुत्वा
नृत्यति. बालकः जननीं स्मरति, रोदनं करोति. बालकः जननीं
स्मृत्वा
स्मृत्वा रोदनं करोति.
धन्यवादः भगिनी, समीचीनं समीचीनं. धन्यवादः भगिनी. वंशी सुधा भगिनी अग्रिम त्रीणि करोति वा.
आं महोदय, षोडशवाक्यमेव. त्वं दुग्धं पिबसि, क्रीडसि. त्वं दुग्धं पीत्वा क्रीडसि. शिष्यः प्रश्नं पृच्छति, उत्तरं जानाति. शिष्यः प्रश्नं पृष्ट्वा उत्तरं जानाति. भक्तः देवं नमति, प्रार्थनां करोति. भक्तः देवं नत्वा प्रार्थनां करोति.
समीचीनम्, समीचीनं. धन्यवादः भगिनी.
महोदय, चतुर्दशवाक्ये अहं किञ्चित् संशयः अस्ति. शृणोति इदानीमेव संयुक्ताक्षरम् अस्ति, श इत्येव र, परन्तु अभ्यासपुस्तके श अथवा ऋकारः एव अस्ति. किमर्थं द्वयोः सम्यक् किम् अस्ति महोदय?
किं किं किं
चतुर्दशवाक्ये शृणोति संयुक्ताक्षर अस्ति अथवा ऋकारः अस्ति?
ऋकारः अस्ति तत्र.
शृणोति चतुर्दशवाक्ये शृणोति, परन्तु अभ्यासपुस्तके शकारः अथवा ऋकारः अस्ति. अहं किञ्चित्
किम् अस्ति
शकारः ऋकारः इदानीमेव? एकनिमिषं महोदय, सर्वे अपि 38 महोदय, अष्टत्रिंशत्.
तत्र
क्रियापदानि अस्ति, करोति अनन्तरं शृणोति अस्ति,
पठति.
इदानीं किञ्चित् किञ्चित् पुस्तके
तत्र शृणोति एव अस्ति.
परन्तु इदानीमेव शृणोति संयुक्ता अस्ति, शकारः रकारः अस्ति अथवा ऋकारः अपि अस्ति, इदानीमेव शकारः ऋकारः एव अस्ति.
हा तत्र अहम् एतद्वयमपि दृष्टवान्.
अहमपि दृष्टवती महोदय, किञ्चित् अहं न जानामि किं सम्यक् अस्ति. अहं लिखितवती परन्तु अहं न जानामि सम्यक् किम् अस्ति. इदानीमेव अहं पृष्टवती.
अस्तु अस्तु अस्तु, भवती चिन्तयति. अस्तु, प्रश्नः एकवारम् अहं किं कः प्रश्नः इति एकवारं भवत्याः प्रश्नः एषः अस्ति. अस्मिन् पुटे, अस्मिन् पुटे चतुर्दशवाक्ये शृणोति इति यदस्ति तत्र ऋकारः अपि अस्ति, किन्तु तस्य पूर्वम् एतद् यदस्ति तद् अक्षरं संयुक्त अक्षरम् अस्ति इति.
आम् महोदय, आम् महोदय.
शकारः यत् श्रवणः इति वद तत्र. हा, किन्तु तद् अहं चिन्तयामि भगिनि, तत्र श्रवणः. हा, अस्तु, द्रष्टव्यमस्ति भगिनि, द्रष्टव्यमस्ति. हा, किन्तु किन्तु
अहं चिन्तयामि चतुर्दशवाक्ये सम्यक् नास्ति. शृणोति
ऋकारः तत्र न भवित न भवितव्यं. हा, सत्यं,
शृणोति.
किन्तु हा, प्रायशः तदेव सम्यक्. तत्र रेफः तु नास्ति, तत्र रेफः नास्ति, तत्र
ऋकारः नास्ति, श्रु उ अस्ति, शृणोति.
हा न न महोदय, शृणोति शृणोति, तत्र तत्र ऋकारः एव अस्ति, ऋकारः नास्ति, ऊकारः नास्ति तत्र. अस्तु, एतत् पश्यामः वंशीविशुद्ध भगिनी, एतत् एतत् अन्वेषणं कुर्मः, किन्तु इदानीं मास्तु. प्रश्नः अस्ति, किन्तु अन्यत् कुर्मः. एतत् किञ्चित् चिन्तयित्वा उत्तरं पश्यामः. समीचीनं वा?
धन्यवादः.
अस्तु, हा अस्तु, अग्रे कः वदति? रमाबाय् भगिनी, शोभा भगिनी, गीताञ्जलि भगिनी वदति वा?
आम् आं महोदय.
हा, नम्बर् 19.
युवकः दूरभ्यासं त्यजति, सज्जनः भवति.
सज्जनः भवति,
भवति. युवकः दूरभ्यासं त्यक्त्वा सज्जनः भवति. विंशति वाक्य. बालकाः क्रीडन्ति गृहं गच्छन्ति. बालकाः क्रीडित्वा गृहं गच्छन्ति.
अग्रिमपुटे अपि एकं वाक्यमस्ति, तदपि करोतु.
सः विद्यालयं गच्छति, पाठं पठति. सः विद्यालयं गत्वा पाठं पठति.
धन्यवादः भगिनि, धन्यवादः. अस्तु, अग्रे मेहुल् महोदय पठितवान् वा भवान्?
अहं द्वितीय अनन्त
भवान् पठितवान्. अस्तु, नरेश् महोदय पठितवान् वा भवान्?
न, अहं न पठितवान्.
अस्तु अस्तु, नरेश् महोदय करोतु.
बालिका फलं खादति, जलं न पिबति. बालिका फलं खादित्वा जलं न पिबति. रमेशः दुग्धं पिबति, शयनं करोति. रमेशः दुग्धं पीत्वा शयनं करोति. अहं श्लोकं वदामि, अर्थं बोधयामि. अहं श्लोकं उक्त्वा अर्थं बोधयामि.
धन्यवादः महोदय. धन्यवादः. अन्य कोऽपि कः न? भानुचित्तिनी महोदय वदति वा? अस्तु रघुपति महोदय, भानुचित्तिनी महोदय, अस्तु वदतु महोदय.
कः बिन्दु?
पञ्चम तृतीयपुटे सा पुस्तकं पठति.
पुस्तकं पठति, भोजनं करोति. सा पुस्तकं पठित्वा भोजनं करोति. अहं कार्यं करोमि, विद्यालयं गच्छामि. अहं कार्यं कृत्वा विद्यालयं गच्छामि. ते चित्रं पश्यन्ति, आनन्दम् अनुभवन्ति. ते चित्रं दृष्ट्वा आनन्दम् अनुभवन्ति.
हा, समीचीनं महोदय, धन्यवादः. कः न उक्तवान्, कृतवान् एतावत्? रघुपतिमहोदय न कृतवान् इति मन्ये.
एकनिमिषं महोदय.
तत्र न तृतीयपुटे भवन्तः इति अष्टम
नास्ति.
अग्रिमपुटे अग्रिमपुटे महोदय.
अर्चकः देव नास्ति महोदय, अत्र नास्ति एव. फस्ट् पेज्, सेकेण्ड् पेज् अण्ड् थर्ड् पेज्. सः थर्ड् पेज् सः विद्यालयं गच्छति.
तत्रैव तत्र अष्टमवाक्यम्
अष्टमवाक्यम्. ओके. भवन्तः गीतं शृण्वन्ति, चायं पिबन्ति. भवन्तः गीतं शृण्वन्ति, श्रुत्वा चायं पिबन्ति. बहुवचन अपि अव्यय अस्ति. अव्यय अस्ति वा?
अव्यय अस्ति.
ओके ओके. वयं धनं यच्छामः, वस्तूनि क्रीणामः. वयं धनं यच्छामः, दत्त्वा वस्तूनि क्रीणामः, क्रीणीमः. सः फलानि नयति, जनैः ददाति. सः जनन्यै ददाति. सः फलानि नीत्वा जनन्यै ददाति.
हा, समीचीनं महोदय, धन्यवादः. अन्य कोऽपि न उक्तवान् अथवा उक्तवती?
महोदय, नववाक्यं पुनः वदतु.
नवमवाक्यं वा? वयं धनं यच्छामः अथवा दद्मः, वस्तूनि क्रीणीमः. धनम् अस्ति, यच्छामः, दद्मः, गिव्. धनं दद्मः, वस्तूनि क्रीणीमः. क्रीणीमः इति जानाति वा भगिनि? क्रीणाति बै इति. क्रीणीमः बहुवचनरूपं.
महोदय, अत्र यच्छामः तस्य त्वान्तरूप अस्ति वा?
अस्ति इति अस्ति इति मन्ये महोदय. द्रष्टव्यमस्ति, अतः प्रायश त्वान्तरूपं प्रायश अस्ति अथवा द्रष्टव्यमस्ति महोदय तत्र.
किं रूपं कृत्वा रूपम्?
यच्छामः, तत्र यच्छामः क्रियापदस्य त्वान्तरूपं न, तस्य उपयोगं न कृतवन्तः. अत्र दद्मः इति धत्वा इति रूपं तस्य उपयोगं कृतवन्तः. अतः अतः महोदय पृष्टवान् यच्छामः क्रियापदस्य त्वान्तरूपम् अस्ति न वा इति द्रष्टव्यम् अस्ति. हा अस्तु, कोऽपि न कृतवान् अथवा कृतवती? रमाभगिनी, नरेश महोदय, रघुपति महोदय, बालचेतन महोदय सर्वे कृतवन्तः इति मन्ये. अस्तु, अग्रे अपि किञ्चित् अस्ति. अस्तु, शोभा भगिनी करोति वा?
आम् आम् नैन् टेन् सह ताः संस्कृतं जानन्ति, सम्भाषणं कुर्वन्ति. ताः संस्कृतं जानीत्वा
तत्र
ज्ञात्वा सम्भाषणं कुर्वन्ति. सः दुर्गुणं त्यजति, सज्जनः भवति. सः दुर्गुणं त्यक्त्वा सज्जनः भवति. महिलाः गीतं गायन्ति, पूजां कुर्वन्ति. महिलाः गीतं गीत्वा
गीत्वा एव सम्यक् इति मन्ये. गायित्वा नास्ति.
अहं ऐ डोण्ट् रिमेम्बर् ऐ थिङ्क् ऐ सीन्
गीत्वा इति एव अस्ति इति मन्ये भगिनि. हा, तत्र कोष्टकं हा कोष्टके नास्ति. हा, किन्तु सत्यम् इति मन्ये. हा
हा, वैद्याः औषधं यच्छन्ति, धनं स्वीकुर्वन्ति. वैद्याः औषधं
दत्त्वा इति
दत्त्वा दत्त्वा धनं स्वीकुर्वन्ति.
समीचीनं भगिनि. हा हा, धन्यवादः. हा, मेहुल् महोदय अग्रे पठति वा? मेहुल् महोदय, अस्तु. वेणुगोपाल् महोदय अग्रे पठति वा तत्र?
आं महोदय, किन्तु कुत्र किं
पितामहः
अस्तु, पितामहः रामायणं पाठयति, अर्धं वदति.
अर्थं
अर्थं वदति
अर्थम् अर्थम् अर्थम्
अर्थम् अर्थं वदति पितामहः रामायणं
पाठयित्वा
अर्थं वदति
अर्थं वदति.
छात्रः चिन्तयति, उत्तरं लिखति. छात्रः चिन्तित्वा उत्तरं लिखति. जननी पुत्रं ताडयति, दुःखम् अनुभवति. जननी पुत्रं ताडित्वा दुःखम् अनुभवति. क्रीडापटुः क्रीडति, पदकं प्राप्नोति. क्रीडापटुः क्रीडित्वा पदकं प्राप्नोति.
धन्यवादः महोदय, धन्यवादः.
महोदय, अत्र निजन्तरूपमस्ति, चिन्तयति, ताडयति. अत्र ताडयित्वा चिन्तयित्वा रूपम् एव न? निजन्तरूपम् अस्ति,
किन्तु
समीचीनमेव.
पाठ इति तावत् तादृश नास्ति. तत्र गणविषयः अस्ति. तत्र यत्र विकरणप्रत्ययः यकारः अस्ति,
ताडित्वा
एव अस्ति. अस्तु, सत्यमेव महोदय. इदानीं न जानामि, किन्तु द्रष्टव्यम् अस्ति. अस्तु, न किन्तु प्रश्नः समीचीनः एव अस्ति. अस्तु, दृष्ट्वा वदामि. हा, चिन्तित्वा चिन्तयित्वा अहं
चिन्तनं कृत्वा ओके चिन्तयित्वा
चिन्तित्वा
मीन्स् वरीड्
चोरः धनं चोरयित्वा
प्रायशः चिन्तयित्वा एव सम्यक् अस्ति तत्र महोदय वेणुगोपाल् महोदय तत्र किञ्चित् प्रश्नः अस्ति अहं सम्यक्तया न स्मरामि तत्र चिन्तित्वा अथवा चिन्तयित्वा किं सम्यक् अस्ति इति
अस्तु महोदय ईमेल् द्वारा भवतः
अस्तु प्रेषयामि अस्तु
अस्तु धन्यवादः
अस्तु मेहुल् महोदय अस्ति वा
आं महोदय
आं महोदय अन्तिमद्वयं कृपया करोतु तत्र
एताः पूजां कुर्वन्ति प्रसादं स्वीकुर्वन्ति एताः पूजां कृत्वा प्रसादं स्वीकुर्वन्ति अर्चकः देवम् अर्चति प्रार्थनां करोति अर्चकः देवम् अर्चित्वा प्रार्थनां करोति
हा तावदेव अस्ति महोदय धन्यवादः अस्तु अस्तु इदानीं क्त्वान्तरूपस्य अभ्यासः जातः इदानीम् अग्रे गच्छामः तत्र रूपस्य कथम् एतत् कुर्मः इति तत्र नियमः अस्ति इदानीं सम्यक्तया न स्मरामि किन्तु तत्र भूतकाल किमपि नियमः अस्ति स्मृत्वा अहं वदामि अस्तु तत्र अग्रे गच्छामः इदानीम् अभ्यासपुस्तके वयं सम्बन्धवाचकशब्दानाम् अभ्यासः कृतवन्तः इदानीं पेज् 61 मध्ये रुचिवाचकाः शब्दाः इति अस्ति तत् कुर्मः अस्तु तत्र गीताञ्जलि भगिनी तत् पठति वा तत्र 61 पेज् अभ्यासपुस्तके रुचिवाचकाः शब्दाः इति मध्ये भागे अस्ति रुचिवाचकाः शब्दाः
लवणं लवणस्य रुचिः लवणं
लवणः
इत्युक्ते महोदय लवणस्य रुचिः लवणः
लवणः तत्र लवणम् इति साल्ट् अस्ति किन्तु लवणः अपि टेस्ट् इति तस्य एकः रूपः अस्ति डिफ्रेण्ट् टेस्ट् रुचिः इति वदामः खलु
लवणः इत्युक्ते टेस्ट्
तत्र लवणः टेस्ट् अस्ति लवणम् इति साल्ट् अस्ति
लवणः इत्युक्ते साल्टि
लवणः इति तत्र रुचिः इति भवति रुचिः पुल्लिङ्गे अस्ति कीदृशः रुचिः इत्युक्ते लवणः रुचिः इति उत्तरं भवति
लवणस्य रुचिः लवणः मीन्स्
साल्ट्स् टेस्ट् इस् साल्टि इति आङ्ग्लभाषायां तत्र लवणः तत्र लवण इति पदम् अर्थस्य तत्र लवणं तत्रापि तस्य नाम अस्ति अपि च रुचिः नाम अपि अस्ति
जम्बीरं जम्बीरस्य रुचिः आम्लः.
आम्लः.
जम्बीरम् इत्युक्ते निम्बु. चाकलेह चाकलेहस्य रुचिः मधुरः.
मधुरः.
मधुरः. मधुरः. मरीचिका. मरीचिकायाः रुचिः कटुः.
कटुः. मरीचिकायाः रुचिः
रुचिः कटुः.
कटुः.
कटुः. कारवेल्लं. कारवेल्लस्य रुचिः तिक्तः. आमलकम्. आमलकस्य रुचिः कषायः.
कषायः इति रुचिः तेषां कीदृशरुचिः इत्युक्ते उत्तरं भवति लवणः वा आम्लः वा मधुरः वा कटुः वा तिक्तः वा कषायः इति तत्र षड् रुचिः सन्ति. षड् रुचिः सन्ति. अस्तु अग्रे रघुपतिमहोदय अग्रिमपुटे यत् अस्ति तत् एकवारं पठति वा.
एतानि वाक्यानि पठतु. अशुद्धानि वाक्यानि शुद्धानि करोतु. गृहस्य गुडस्य रुचिः कटुः. न गुडस्य रुचिः मधुरः. मरीचिकायाः रुचिः मधुरः. न मरीचिकायाः रुचिः कटुः.
कटुः. समीचीनम्.
आम्रफलस्य रुचिः तिक्तः. न आम्रफलस्य रुचिः मधुरः.
मधुरः. अस्तु धन्यवादः महोदय. अस्तु गीता भगिनी अग्रिमं करोति वा.
अवलेहस्य रुचिः मधुरः. न अवलेहस्य रुचिः कटुः.
कटुः.
That's pickle, right?
चिन्तयम्.
तिन्त्रिण्याः रुचिः कटुः.
तिन्त्रिण्याः.
I don't know.
तिन्त्रिण्याः किमस्ति कोऽपि जानाति वा.
इम्लि.
टामरिण्ड्. ओके. तिन्त्रिण्याः रुचिः कटुः. आम्लः. आम्लः. तिन्त्रिण्याः रुचिः आम्लः.
आम्लः. अस्तु. अस्तु भगिनि धन्यवादः. अस्तु तदेव केवलं किञ्चित् परिचयः भवतु इति तत् अस्ति. इदानीं तत्र रुचिः तस्य षड् रुचयः सन्ति इति. अस्तु इदानीम् अग्रे गच्छामः. तत्र 28.1 तत् कुर्मः अत्र. अस्तु कः कः कः
महोदय.
हा
महोदय. तत् तड् ताड् इति दशमगणः महोदय. अतः अय इति विकरणप्रत्ययः अस्ति.
कुत्र कुत्र चिन्तयित्वा वा.
निजन्तरूपं दशमगणः चुरादिगणः.
हा किन्तु तत्र हा तत्
चुरादिगणः तत् अतः अय
इति विकरणप्रत्ययः भवति. अस्तु अय इति विकरणप्रत्ययः अस्ति. अस्तु धन्यवादः महोदय. हा अस्तु अग्रे कः पठति. वंशीसुध भगिनी पठति वा तत्र 28.1 तत्र अद्वय अन्यपि अपेक्षितमस्ति, पश्यामः अन्य कोऽपि आगच्छति वक्तुम् इच्छति। भानुचेतनी महोदय तत्र करोति वा, तत्र आपणिकः भवान्?
आम् महोदय।
हा, वंशीसुत भगिनी भवति रमा।
आम् आम् महोदय।
अस्तु, हा,
किन्तु मम पार्श्वे किमपि नास्ति महोदय।
अस्तु अस्तु, किन्तु तत्र 28.1 अस्ति खलु? हा
भवती किम् इच्छति?
अहं पाञ्चालिकाम् इच्छामि।
ईदृशपाञ्चालिकाम् इच्छति?
पश्यतु, ईदृशपाञ्चालिकाम् इच्छामि, अस्ति वा?
अस्ति, परन्तु तादृशपाञ्चालिकायाः मूल्यं 20 रूप्यकाणि।
दर्शन्तु भो, किं भो, मम सखी अपि ह्यः ईदृशपाञ्चालिकाम् एव क्रीतितवती, तस्याः मूल्यं तु 10 रूप्यकाणि एव।
प्रायः सा पाञ्चालिका ईदृशपाञ्चालिका न स्यात्।
ईदृशपाञ्चालिका एव भो, अहं सम्यक् जानामि।
तर्हि 15 रूप्यकाणि ददातु, नयतु।
न न न, 15 रूप्यकाणि अधिकानि, अहं तु 10 रूप्यकाणि ददामि।
भवतु, पाञ्चालिकां स्वीकरोतु।
धन्यवादः।
अस्तु, सर्वे अवगच्छन्ति वा तत्र? अस्तु, पश्यामः कः किञ्चित् तत्र वदति इति। अस्तु, नरेश महोदय तत्र आपणिकः प्रथमवाक्यं, आपणिकः अपि रमा किं किं वदन्ति तत्र नरेश महोदय?
आपणिकः भवती किम् इच्छति
इति वदति। हा, रमा किं वदति?
रमा वदति अहं लेखनीम् इच्छामि।
न न, पाञ्चालिकाम्। ओ भव, हा, अस्तु अस्तु, अत्र भवान् अग्रे गतवान्। अस्तु अस्तु अस्तु, अहम् एतत् सम्भाषणे किम् अस्ति इति चिन्तितवान्। अस्तु अस्तु, चिन्ता मास्तु महोदय, तदपि एकनिमेष कुर्मः। इदानीं विषयः कः इत्युक्ते, तत्र नूतनं किम् अस्ति इत्युक्ते, अत्र कीदृश, ईदृश, सदृश इति नूतनरूपम् अस्ति, तदेव अत्र अस्ति। ईदृश लैक् दिस् इति, कीदृश लैक् वाट् इति वयं वक्तुं शक्नुमः। कीदृशपाञ्चालिकाम् इच्छति, विच् टैप् आफ् डाल् वुड् यु लैक् इति, ईदृश दिस् टैप् तत्र। किन्तु ईदृश तद् किं भवति, विशेषणं भवति, अतः एव तत्र ईदृशः स्यूतः, ईदृशी घटी, ईदृशं पुस्तकम् इति अस्ति। किन्तु तत्र किमर्थं सर्वत्र ईदृश ईदृश कीदृश तादृश इति अस्ति तत्र? अहं चिन्तयामि तत्र प्रायशः ते संयुक्तपदं चिन्तितवन्तः इति, ईदृशपाञ्चालिकाम्, ईदृशपाञ्चालिकां तादृशपाञ्चालिकायाः मूल्यम् इति। हा, तत्र हा, किन्तु अतः तत्र रूपस्य परिवर्तनं नास्ति, एकमेव रूपम् अस्ति, किन्तु तत् विशेषणं भवति, स्यूतः अस्ति, कीदृशः स्यूतः इति प्रश्नः भवति, विच् टैप् आफ् स्यूतः, अतः ईदृशस्यूतः, कीदृशस्यूतः, तादृशस्यूतः इति उत्तरं भवति। अस्तु, ईदृश ईदृशी अपि ईदृशम् इति अस्ति तत्र। वयं सर्वे एकमेकं वाक्यं वदामः, प्रश्नः वा अथवा उत्तरं वा किमपि, एकं वाक्यं प्रश्नवाचकम् अथवा केवलं वाक्यं, द्वयमपि साधु अस्ति। कः वदति? अस्तु, अहमेव पृच्छामि। रघुपति महोदय, एकं वाक्यं ईदृश ईदृशी ईदृशम् अथवा कीदृशः कीदृशी ईदृशम् इति उपयुज्य
कीदृश भवती कीदृशी घटी क्रेतुम् इच्छति इच्छसि
क्रेतुम्
इच्छसि इच्छति सारि इच्छति भवती
समीचीनं महोदय धन्यवादः धन्यवादः अस्तु अन्य कोऽपि गीता भगिनी वदति वा सरलवाक्यं
भवान् कीदृशी घटी क्रीणाति
क्रीणाति समीचीनं क्रीणाति समीचीनं भगिनि अस्तु वेणुगोपाल् महोदय वदति वा
आं महोदय तादृशसुन्दरं कथं किमपि न श्रुतवान्
श्रुतवान् तादृशं
तादृशं कथा कथं
एकनिमिष कथा इति अस्ति खलु महोदय अस्तु तद् स्त्रीलिङ्गे अस्ति अतः तादृशीं
कथां किमपि न श्रुतवान्
पूर्वं न श्रुतवान्
पूर्वं न श्रुतवान्
पूर्वम् अहं न श्रुतवान् तत्र संयुक्तपदं चेत् तादृश कथाम् अथवा तादृशीं कथाम् अहं पूर्वं न श्रुतवान् अन्य कोऽपि वक्तुम् इच्छति वा नरेश महोदय वदति वा
भवान् कीदृशानि पुस्तकानि इच्छति
इच्छति समीचीनं महोदय वंशीसुत भगिनी वदति वा अथवा मेहल् महोदय वदतु मेहल् महोदय वदतु
भवान् यादृशसंस्कृतेन सम्भाषणं करोति तादृश अहम् अपि कर्तुम् इच्छामि
यादृशं सम्भाषणं यादृशं तत्र यादृश्यम् इति अस्ति अस्तु समीचीनं महोदय समीचीनम् अन्य कोऽपि
अहं वदामि
वदतु भगिनि
मम समीपे तादृशलेखनी नास्ति
मम समीपे तादृशी लेखनी नास्ति समीचीनं भगिनि
भवान् कीदृश युतकं क्रीणाति
कीदृशं युतकं समीचीनं भगिनि अस्तु
धन्यवादः
अन्य कोऽपि भानुचेतन महोदय वदति वा
ईदृश कल्याणरूप भगवान् सर्वत्रापि लभ्यते
समीचीनं अस्तु रमाबाई भगिनि
ईदृश शाटिका
ईदृशी शाटिका कुत्रापि
नास्ति
समीचीनं भगिनि धन्यवादः अस्तु अन्य
वदामि
वदतु भगिनि गीताञ्जलि भगिनि वदतु
मम पुत्री ईदृश भोजनं रोचयति
ईदृशं भोजनम् अन्तिमपदं न श्रुतं मया
लैक् टु लैक्
इच्छति
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 मम पुत्री ईदृशभोजनम्
ईदृशभोजनम्
इच्छति
इच्छति तत्र संयुक्तपदं भवति ईदृशभोजनम् इति अस्तु अथवा यदि पदद्वयमस्ति चेत् ईदृशं भोजनम् इति
रोचन्ते इस् नाट् टु लैक्
रोचते किन्तु तत्र रूपम् अन्यद् रूपम् अस्ति भगिनि तत्र चतुर्थी विभक्ति भवति मह्यं रोचते अहं रोचामि इति नास्ति तस्यै रोचते इति भवति चतुर्थी विभक्तिरूपम् अस्ति आवश्यकम् अस्ति तत्र अस्तु अन्य कोऽपि वक्तुम् इच्छति वा
एकवाक्यम् अहम् ईदृशौ द्वौ स्यूतौ क्रेतुम् इच्छामि
किन्तु रामः रामो रामः रामं रामौ अस्तु हा अस्तु भगिनि कर्मपदम् अस्ति इति अहम् एकवारं चिन्तयितवान् तावदेव समीचीनम् अस्तु हा
ओ सो ईदृशं
तत्र विशेषणं भवति विशेषणं भवति अतः यत्र भवती किम् उक्तवती किं क्रीणामि इति किन्तु तत्र किं क्रीणामि क्रीणामि किन्तु
क्रेतुमिच्छामि
क्रेतुं किन्तु तत्र क्रेतुम् इति क्रियापदमिव भवति तस्य कर्मपदम् अस्ति स्यूतौ
इत्युक्ते
तत्रापि क्रेतुं तत्रापि क्रेतुम् अपि तत्रापि तत्रापि तत् क्रियापदम् इव एव भवति तत्र तस्य कर्मपदम् अस्ति स्यूतः इति तत्र कर्मपदं भवति एकवचने स्यूतम् इति भवति स्यूतः किन्तु स्यूतः अस्ति स्यूतं क्रेतुम् इच्छामि इति भवति अतः द्विवचने द्विवचने स्यूतौ क्रेतुम् इच्छामि बहुवचने बहुवचने किम् अस्ति
स्यूताः
न न स्यूतान्
स्यूतान्
कर्मपदम् अस्ति अतः एव मनसि एकवारं उक्तवान् रामः रामो रामः रामं रामो रामान् इति रामौ इति तद् प्रथमविभक्ति वा द्वितीयविभक्ति वा समानम् अस्ति इति
द्विवचने ईदृशौ
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 क्रेतुं
द्वौ स्यूतौ
स्यूतौ क्रेतुं
ईदृशौ इत्युक्ते द्विवचनं
भवति ईदृश विशेषणम् अस्ति ईदृशः स्यूतः अतः ईदृशौ स्यूतौ ईदृशान् स्यूतान् इति
द्वौ
आवश्यकं नास्ति 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 द्वौ पदस्य नास्ति
ईदृशौ स्यूतौ क्रेतुम् इच्छामि
समीचीनम् अस्तु शोभा भगिनी वदति वा
आं महोदय कीदृशम् अस्मिन् पुस्तकम् अस्ति ईदृशं पुस्तकं मह्यं रोचते
प्रथमभागं पुनरेकवारं भगिनि
कीदृशम् अस्मिन् पुस्तकम् इदं पुस्तकम् इदं
कीदृशं पुस्तकम् इदम् इति वा
इदं कीदृशं पुस्तकम्
इदम्
अस्ति तादृशा वुड् बि राङ्ग्
तादृशं
तादृशम् आर् ईदृशं बोत्
ईदृशं पुस्तकम्
ईदृशं पुस्तकं मह्यं रोचते
ददातु रोचते मह्यं रोचते मह्यं रोचते तत्र रोचते इति तत्र चतुर्थी विभक्ति आवश्यकम् अस्ति मह्यम् इति
मह्यं रोचते
मह्यं रोचते ईदृशं पुस्तकं मह्यं रोचते समीचीनम् ईदृशानि पुस्तकानि मह्यं
रोचन्ते
समीचीनं तत्र पुस्तकानि एव कर्तृपदम् अस्ति अतः बहुवचनरूपम् आवश्यकं सत्यं समीचीनं भगिनि अस्तु अन्य कोऽपि वदति वा? ईदृशं कीदृशं सदृशं एतावत् सर्वे उक्तवन्तः वा? मेहुल् महोदय, वेणुगोपाल् महोदय, वंशीसुधा भगिनी, रमाबाई भगिनी, रमाबाई भगिनी उक्तवती वा? अस्तु, रमाबाई भगिनी वदति
वा? मम समीपे पुस्तकम् अस्ति, तादृशपुस्तकं भवतः समीपे अस्ति वा?
समीचीनं भगिनि, धन्यवादः. अस्तु अस्तु अस्तु, इदानीं
महोदय एकः प्रश्नः अस्ति. सम्भाषणे रमा उक्तवती ईदृशपाञ्चालिका एव भो, ईदृशी पाञ्चालिका एव अहं चिन्तयति मन्ये. द्वितीय
तत्र तत्र अहं चिन्तयामि तत्र किं कृतवन्तः अत्र संयुक्तपदं कृतवन्तः तत्र तत्र संयुक्तपदम् इत्युक्ते कम्पौण्ड् वर्ड् इति तत्र ईदृशी इति रूपम् आवश्यकं नास्ति किन्तु रक्तवर्णे रक्तवर्णे केवलम् ईदृश इति रक्तवर्णे स्थापितवन्तः किन्तु तत्र पदमस्ति ईदृशपाञ्चालिका इति संयुक्तपदमस्ति
संयुक्तेव अहं लेखितुं
महोदय अहं चिन्तयामि महोदय अहं चिन्तयामि अत्र अस्माकं कृते केवलं कीदृश शब्द दत्तमस्ति वयं तस्य समीकरणं कुर्मः कीदृशी
सत्यं महोदय तत्रापि तत्र
कीदृशपाञ्चालिकाम्
इच्छति संयुक्तपदम् अस्ति चेत् समीचीनं
संयुक्तपदं नास्ति अत्र कीदृश
सत्यं सत्यम् अहम् अङ्गीकरोमि महोदय तत्र संयुक्तपदं मुद्रणे संयुक्तपदम् इव नास्ति किन्तु यदि संयुक्तपदं नास्ति चेत् तत्र दोषः भवति खलु अतः अहं चिन्तयामि तेषां चिन्तनं प्रायशः आसीत् एतत् संयुक्तपद पदं भवतु इति किन्तु मुद्रणसमये ईदृश तत् रक्तवर्णे भवति अपि पाञ्चालिका इति कृष्णवर्णे भवति प्रायशः तत्र संयुक्तपदम् इव न मुद्रणं कृतमस्ति इति मम चिन्तनं नो चेत् तत्र यत् कोष्टके दत्तमस्ति तत् सः नियमः तत्र सम्यक् नास्ति खलु न पालितं पालितं न भवति खलु
महोदय could it be mudrana dosham
ha tadapi prayashe bhavati ha 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 kidrushi kintu tatra kidrushah atva kidrushi ha stadrushi prayashe tadapi bhavitum arhati bhagine ha samichinam eva sarvatra kintu idrushim panchalikam idrushi ha tadapi bhavitum arhati bhagine na janami ha न जानामि सत्यं तदपि भवितुम् अर्हति अस्तु अस्तु तद् न जानीमः किन्तु सम्यक् रूपं यद् अस्ति तद् तु दत्तमस्ति तद् स्वीकुर्मः अस्तु अस्तु इदानीं समयः जातः विरमामः अग्रिमवर्गे मिलामः तत्र विरुद्धार्थकशब्दः इति विषयः भवति अस्तु सर्वेभ्यो नमस्कारः धन्यवादः
धन्यवादः
नमस्कारः
धन्यवादः
नमस्कारः शुभरात्रिः.